विभूति योग श्री भगवान वाच प्रभूय एव महाबाहो श्रृणु मे परम वचः जत्तेऽहं प्रीयमानाया वक्ष्यामि हितकामया न मे विदुसुरगणा प्रभवं न महर्षय अहमादिर्हि देवानां महर्षीणां च सर्वशः जो माम् अजमनादिञ्च वेत्ति लोकमहेश्वरम् असङ्गमूढः समर्थ्येषु सर्वपापैः प्रमुच्यते बुद्धिर्ज्ञानम् असङ्गमोह क्षमासक्तं दमःसमः सुखं दुःखं भवो भावो भयञ्चाभयमेव च अहिंसा समता तुष्टि स्तपोदानजसूजसः भवन्ति भावा भूतानां मत्त एव पृथग्विधा महर्षयः सप्तपूर्वे चत्तारो मनवस्तथा मद्भावा मनसा जाता येषां लोक इमां प्रजा एतां विभूतिं योगञ्च ममो जो वेत्ति तत्ततः सो विकल्पेन योगेन युज्यते नात्र संशय अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते इति मत्ता भजन्ते मां बुधा भाव समन्विता मच्चित्ता मद्गत प्राणा बोधयन्त परस्परं कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं ददामि बुद्धियोगं तं येन मामुपजान्ति ते तेषामेवानुकम्पार्थम् अहमज्ञानजङ्गतमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता अर्जुन उवाच परं ब्रह्म परं धाम पवित्रं परमं भवान् पुरुषं शाश्वतं दिव्यम् आदिदेवमजं विभुम् आहुस्तामृषयः सर्वे देवर्षि नारदस्तथा अशितो देवलो व्यासो स्वयं चैव ब्रवीषि मे सर्वमेतादृशं मन्ये जनमां वदसि केशव नहि ते भगवन् भक्तिं विदुर्देवानुदानवा स्वयमेवात्मनात्मानं व्यक्तत्वां पुरुषोत्तम भूतभावन भूतेश देवदेव जगत्पते वक्तुमर्हशेषेन दिव्याच्छात्मविभूतयः याभिर्विभूतिभिर्लोकान् इमां स्तं व्यक्पतिष्ठति कथं विद्यामहं योगिं स्त्वां सदा परिचिन्तयन् केषु केषु च भावेषु चिन्तोषि भगवन् मया विस्तरेणात्मनो योगं विभूतिञ्च जनार्दन भूय कथय तृप्तिर्हि शृण्वतो नास्ति मे मृतं श्रीभगवानुवाच हन्त ते कथयिष्यामि दिव्याच्छात्मबुभि विभूतयः प्राधान्यतो कुरु श्रेष्ठ नस्तन्तो विस्तरस्य मे अहमात्मा गुरः केश सर्वभूताशयस्थितः अहमादिश्च मध्यञ्च भूतानामन्त एव च आदित्यानाम् अहं विष्णु ज्योतिषां रविरसु अंशुमान् मरिचिर्मरुतामस्मि नक्षत्राणामहं शशि वेदानां सामवेदोऽस्मि देवानामस्मि वासवः इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना रुद्राणां शङ्करश्चास्मि वित्तेषु जुक्षुरक्षसां वसूनां पावकश्चास्मि मेरुशिखरिणामहं पुरधशाञ्च मुखं मां विद्धि पार्थ बृहस्पतिं सेनानीनामहं स्कन्द सरसामस्मि सागरः महर्षीणां भृगहं गिरामस्मेकमक्षरं यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः अश्वत्थ सर्ववृक्षाणां देवर्षीणां च नारदः गंधर्वाणां चित्ररथ सिद्धानां कपिलो मुनि उच्चैश्रव समस्तानां विद्धिमाम अमृतोद्भवं ऐरावतं गजेन्द्राणां नराणां च नराधिपम् आयुधानामहंगवज्रम् धेनूनामस्मि कामधुक् पर्जनश्चास्मि कन्दर्प सर्पानामस्मि वासुकिः अनन्तश्चास्मि नागानां वरुणो जादशामहं पितॄणाम् अर्जमा चास्मि जमः संजमतामहं प्रह्लादश्चास्मि दैत्यानां कलयतामहं मृगाणां च मृगेन्द्रोऽहं वैनतेवश्च पक्षिणां पवनः पवतामस्मि रामशस्त्रभृतामहं झषानां मकरश्चास्मि स्रोतस्यामस्मि जह्नवी सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन अध्यात्मविद्याविद्यानां बाधः प्रवदतामहम् अक्षराणामकारोऽस्मि दण्डः सामासिकस्य च अहमेवाक्षयः कालो धाताहं विश्वतोमुखः मृत्युः सर्वहरश्चाहम् उद्भवश्च भविष्यताम् कृतिः श्रीवाक् च नारीणां श्रुतिर्मेधा धृति क्षमा बृहत् साम तथा साम्नां गायत्रीश्छन्दसामहं माधानां मार्गशीर्षोऽहं मृदूनां कुसुमाकरः दूतं छलयतामस्मि तेजस्तेजोऽसिनामहं जायोऽस्मि व्यवसायोऽस्मि सत्यं सत्यवतामहं वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः मुनीनामप्यहङ्गव्यासः कवीनाम् उशना कविः दण्डो दण्डमयतामस्मि नीतिरस्मि जिगीषतां मौनं च हि चैवास्मि गुच्छानां ज्ञानं ज्ञानवतामहं जच्चापि सर्वभूतानां बीजं तद् अहमर्जुन न तदस्ति विना जत्स्यान् मया भूतं चराचर नन्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप एष तुद्देशतः प्रोक्तो विभूतिर्विस्तरो मया यज्जद्विभूतिमत्सत्तं श्रीमदूर्जितमेव वा तत्तदेवावगच्छत्तं मम तेजोऽंशसम्भवम् अथवा बहुनैतेन किं ज्ञातेन तवार्जुन विष्टभ्याहमिदं कृष्णम् एकांशेन स्थितो जगत् इति श्रीमहाभारते शतसहस्रां संहितायां वैयासिक्यां भीष्मपर्मणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विविधयोगनामदशमोऽध्यायः हरि ओं तत्सत्।